पीतपाशकाङ्कुशं वरप्रदाभयप्रदं चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम्। प्रचण्डरत्नकङ्कणं प्रशोभितान्ध्रियष्टिकं प्रभातसूर्यसुन्दरां वरद्वयप्रधारिणं सरत्नहेमनूपुर प्रशोभितान्ध्रिपङ्कजम्। षडक्षर स्वरूपिणं भजे गजेन्द्ररूपिणम्। समर्पितं पराम्बया निरन्तरं सुरासुरै सुपुत्रवामलोचनै महामखेष्टकर्मसु स्मृतं भजामि तुन्दिलम्। भक्तिमानवं प्रचण्डमूर्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकं वक्रतुण्डनायकं वक्रतुण्डनायकम्। दारिद्र्यविद्रावणमाशुकामदं स्तोत्र शास्त्रं पठेत् एतदजस्रमादरा पुत्री कलत्र स्वजनेषु मैत्री उमान् भवेदेकवर प्रसादा।